अथ द्वितीयसर्गः। पवमानसुतं वीक्ष्य प्लवमानमहार्णवः मग्नमात्मनि मैनाकं हिमाद्रे सूनुमब्रवीत्। उत्तिष्ठ पर्वतश्रेष्ठ विश्रमार्थं हनूमतः रामदेवस्य दूतोऽयं माननीयो हिमादृशैः। इति वारिनिधेर्वाक्यादुत्तस्थौ काञ्चनाचलः कलापश्यामले सिन्धावचिरांशुरिवाम्बुदे अनेकसानुमात्मानं नानावनमनोरमम् अनादृतोत्पतन्तं तं हनूमन्तं धरोऽब्रवीत्। वीरविश्रम्यतामत्र भुज्यतां स्वादुमत्फलम् बान्धवा वयमित्युक्तो मारुतिर्गिरमब्रवीत्। विश्रमश्रमिणां सौम्यनश्रमो मम विद्यते अविश्रमे प्रतिज्ञा मे कृता वानरसन्निधौ। अल्पशेषश्च दिवसस्त्वरेयं कार्यगौरवात् महीधरमही मुक्त्वा कस्मान्मग्नोऽम्बुधौ भवान्। मारुतेरीरितं श्रुत्वा शालशम्भोरभाषत पक्षिणः पर्वताः पूर्वमक्षिण्वन् भुवनत्रयम्। वज्रेण वज्री चिच्छेदपक्षान्निःशेषभूभृतां नीतोऽहं दयया सिन्धुं वायुना वायुनन्दन। सर्वान्तरात्मा तातस्ते पक्षदो मे ततो भवान्। पूज्यो मे प्रेषितश्चाहं रामभक्तेन सिन्धुना। हिरण्यनाभगामेव श्रुत्वा प्राभञ्जनिः प्रभुः परिरभ्य ययौ दोर्भ्यामद्रिं पुरुषरूपिणम्। स्थाने सत्यप्यविश्रान्तं तं शशंसुः सुरेश्वराः पुंसः प्रभावसामग्र्यां नैरपेक्षं हि लक्षणम्। इन्द्रो गिरीन्द्रमाचष्टतोषितस्तेन कर्मणा अभयं ते मया दत्तं रामशुश्रूषणादिति। प्लवमानं तमालोक्य द्विगुणं वेगमागतं न्यगदन्नागजननीं सुरसां सरसासुराः। मारुतेः कुरु विघ्नं त्वं जिज्ञास्यामोऽस्य तद्बलं यद्यदिच्छसि तत्तत्ते वक् त्रमेतु वरेण नः। दक्षादाक्षायणीत्युक्ता भूत्वा सा रूक्षराक्षसी तस्थावास्य विवृण्वाना मार्गमावृत्य मारुतेः। तामवेक्ष्य करालाक्षीं पिङ्गाक्षेन्द्रोऽभ्यभाषत मारुती रामदासोऽस्मि मार्गो मे दीयतामिति। यो वा को वा भवेदानीं वदनं प्रविशाशु मे। इत्युक्त्वा साट्टहासां तां कपीन्द्रः कुपितोऽब्रवीत्। कथं मां ग्रससीत्युक्त्वा विग्रहं जगृहे हरिः। आयामेष्वथ विस्तारे समानं बहुयोजनम्। व्यादात् साद्विगुणं वक्त्रं तद्देहपरिमाणतः सोऽङ्गुष्ठमात्रस्तद्वक्त्रं प्रविश्य निरगात् प्रभुः। तस्य प्रभावं सम्भाव्य सरसा सुरसाब्रवीत् जीवन्नेवामरवरं तातरक्षितवानसि। सत्यं लङ्कामुपेत्य त्वं जानीया जनकात्मजां तामेव वादिनीं वीरः परिपूज्य प्रपुप्लुवे। तमापतन्तमालोक्य सिंहिका सिंहविक्रमम् दैवान्मे भोजनं पूर्णं प्राप्तमित्यन्वचिन्तयत्। विधेर्वरादवध्या सा लङ्कापालनतत्परा छायाग्रह इति ख्याता छायां जग्राहमारुतेः। लोकघ्नीमवलोक्यायं दानवीं विवृताननाम् अभूदद्रिनिभस्सापि वक्त्रेणाम्बरमावृणोत्। स्वतनुं तनुतां नीत्वा हनूमानाविवेशताम्। हृदयं निर्दयं तस्या बिभेदनखरैः खरैः आन्त्रमालिनमुत्क्रान्तं तां निहत्य महाहरिं नरसिंहमिवासह्यमस्तु वंसुरकिन्नराः हनुमन् भूरिमहिमन् हताः सर्वा हितास्त्वया खेचराः खेचरिष्यन्ति त्वां गायन्तो भयं विना इति संस्तुवतः सर्वान् दिव्यपुष्पप्रवर्षिणः अपाङ्गेनोपसङ्गम्य प्लवगेन्द्रः प्रपुप्लुवे उल्लोलमेघकल्लोलं लोलसत्त्वगुणाकुलम् अम्बरं चाम्बुराशिञ्च ससमं समलङ्घयत् आलम्बशिखरे लम्बे लङ्काप्राकाररूपके निपपातकपिश्रेष्ठसत्रिकूटोपशोभिते आपाततोऽभ्यापततो वातपुत्रस्य निस्वनात् खगामृगादशदिशो वित्रस्ता दुर्द्रुवुर्द्रुतम् पुष्पाणि विवृषुर्वृक्षास्तस्मिन्नापतिते सति विक्रान्तिमतिसम्भ्रान्ता बान्धवा इव बान्धवे बलात्मनो हनुमतो नग्लानिर्विक्रमेऽप्यभूत् न हि तेजस्विनो वह्नेर्निशीथेऽप्यन्धकारिता त्रिकूटशृङ्गमारुह्य प्रेक्ष्यमाणो दिशो दश लङ्कामलङ्कारवतीं सदृशेन्द्रपुरीमिव गम्भीरपरिखां भीमां बहुप्राकारदुर्गमां दृष्ट्वा लङ्कां गिरीन्द्रस्थां नानाचिन्तामचिन्तयत् न नूनं वा नराणां स्याल्लङ्घनं लवणो दधेः अथापि लङ्घितवतां पुरीयं सुगमा कथम् चिन्तया तान्तिकार्या किं नास्ति रामस्य दुष्करम् रामदेवप्रसादेन किं ममास्ति च दुष्करम् अरुणी भवन्तीदानीं तरणिस्तरुणो यथा अस्तङ्गतेऽस्मिन् यास्यामि मा द्राक्षुर्मां हि राक्षसाः माममी राक्षसा वीक्ष्य शङ्केरन्नीदृशाकृतिम् अणुः पुरीं प्रवेक्ष्यामि ततोऽन्वेष्टुं नृपात्मजाम् इति सञ्चित्य शैलाभो बिडालाभो बभूवसः योगैश्वर्यबलेनैव योगीशवरवल्लभः मत्तप्रमत्तस्त्रीपुंस्कं पुरं शुद्धिविवर्जितम् आभिचार इव क्रूरः प्रदोषे प्राप्तवान् कपिः अच्छिद्रवप्रवसनां मणिहेमविभूषणां सपुरीं स्त्रीमिवाद्राक्षी पीनोन्नतगृहस्तनीम् इन्दुहासेन सन्दीप्तसौधगण्डेन पाण्डुना आह्वयत्सा हरिं नूनं पाणिकान्त्यापताकया पत्योधनपतौ याते भजन्त्युपपतिं खलम् लज्जिते वावृणोल्लङ्का धूमपट्यानिजं वपुः कस्त्वं पुरप्रवेशीति भर्त्सयन्ती न दन्त्युत ताडयामासतं चण्डी स्त्रीरूपा पुरदेवता अचिकीर्षुः कपिवरः स्त्रीवधं सञ्जुगुप्सितम् वामो वामकराग्रेण तां मनाक् प्रत्यट ताडयत् पीडिता ताडितेनास्य विह्वला प्रह्वतां गता गद्गदाक्षरमूचे सा वाञ्जनेयं कृताञ्जलिः स्वागतं ते महाभागजाने त्वां ब्रह्मणो गिरा लङ्कासङ्कटकाले त्वां कपिर्जेता बलादिति वीरवीरप्रणयिनीं मृगयस्वमृगेक्षणीं व्यालेरप्यनुकम्पायाः क्षमस्वागस्त्रियो मम तामेवं वादिनीं दीनां माभीरिति विसृज्य सः अद्वारेण बलोदारः प्रविवेशरिपोः पुरीम् ద్విషామూర్ధ్ని పదం వామం చక్రే నిద్రాముపేయుషాం పశ్చాత్కరిష్యన్ శరణే దీర్ఘ నిద్రాముపేయుషః సుందరే మందరాకారే మందిరే మందిరే హరిః దదర్శ రాక్షసాన్ రూక్షాన్ నానావస్థానవస్థితాన్ మత్తాన్ ప్రమత్తాన్ ఉన్మత్తాన్ నానాపానరతానపి సురతోత్సవ సంసక్తాన్ రమణీభిరవైక్షత జుహ్వతోగ్నిం చ జపతో ధ్యాయతో బ్రహ్మరాక్షసాన్ నానాయుధరాంశ్చాన్యాన్ అపశ్యత్ పురరక్షిణః వైష్ణవం విష్ణుగాయంతం సదా సత్యరతం తతః విభీషణం లోకహితే రతం మంగళమైక్షత దురుశ్వాసం గాఢనిద్రమున్మత్తం పర్వతోపమం కుంభకర్ణం సమాలోక్య శిరోధున్వన్ సమారుతిః తతో విగ్రాంస భగినీం రాక్షసేంద్రస్య దుష్కృతిం వివాసినీం రాక్షసానాం పలపానాశనేర్యుతాం నగ్నాం స్రస్తశిరః కేశాం పానాదున్మత్తచేతసాం గాయంతీం విస్వరం హాస్యాం దుర్భగాం శ్లక్షణేతరాం కరో భయేన శిరసా ధున్వతా ప్రభయంకరీం అత్యంతమివ నృత్యంతీం సహితాం పిశితాశిభిః ఇంద్రజిన్ముఖ్యపుత్రాణాం రావణస్య గృహే గృహే తత్ర తత్ర సమాలోక్య జానకీం కిల నైక్షత రాక్షసీరైక్షతానేకామానినీః కామినీరపి విలాసినీర్భోగినీశ్చ యోగినీశ్చ వియోగినీః క్రీడితాన్ పీడితాన్ పోతాన్ ముదితాన్ రుదితానపి లాలితాన్ భర్త్సితాన్ కాంశ్చిత్ మాతృభిర్దృష్టవానసౌ చతురంగం తు కామం నో యుద్ధం స్యాదితి గర్జితం చతురంగం తు కామం నో నిద్రాం సైన్యమవైక్షత రామాననాభం హనుమానయంతం ఖే వీక్ష్య పూర్ణేందుమమానయంతం నాథం హసస్మారసమానయంతం భక్తాన్ సుఖేనైవ సమానయంతం ఇతి శ్రీ సంగ్రహ రామాయణే సుందరకాండే రామాంకే ద్వితీయ సర్గః